शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्यां नागेन्द्रकन्या वृषकेतनाभ्यां नमो नमः शंकर पार्वतीभ्यां नमः शिवाभ्यां वृषवाहनाभ्यां विरुचि विष्णुन्द्र सुपूजिताभ्यां विभूति पाटीर विलेपनाभ्यां नमो नमः शंकर पार्वतीभ्यां अनघं जनकं जगतां प्रथमं वरदं करशूलधरं सुलभं करुणाम्बुनिधिं कलुशापहरं प्रणमामि महेश्वरमेकमहम् अमलं कमलोद्भव गीतगुणम् शमदं समदासुरनाशकरम् रमणीय रुचिं कमनीयतनम् नमसाम्ब शिवं नत पापहरम् शिवं शंकरं बन्धुरं सुन्दरेशं नटेशं गणेशं गिरीशं महेशं दिनेशेन्दुनेत्रं सुगात्रं रुडानि पतिं श्रीगिरीशं हृदा भावयामि भृङ्गीच्छा नटनुत्कटः करिमदग्राही स्फुरन्माधवाह्लादो नादयतु महासितवपुः पञ्चेषु नाचादृतः सत्पक्षः सुमनो वनेषु स्वपुनः साक्षान्मदीये मनोराजीवे भ्रमराधिपो विहरताम् श्रीशैलवासी विभुः सोमोत्तम सत्सुरपरिषदाम् येष जीवातुरीशः पाशच्छेत्ता पदयुगजुषाम् फुल्लमल्लीनिकाशः ध्येयो देवः प्रकटितवधूरूपवामात्मभागः श्रीशैलाग्रे कलितवसतिर्विश्वरक्षादुरीणः येणं पाणौ शिरसि तरुणोल्लासमेणाङ्कखण्डम् पार्श्वे वामे वपुषि तरुणिं दृक्षुकारुण्यलीला भूतिं फाले स्मितमपि मुखे गाङ्गमम्भः कपर्दे बिभ्रत्प्रेम्णा भुवनमखिलं श्रीगिरीशः सपायात् श्रीशैले स्वर्णशृङ्गे मणिगणरचिते कल्पवृक्षाणि शीते स्फीते सौवर्णरत्नस्फुरितनवगृहे दिव्यपीठे सुभार्हे आसीनः सोमचूडः सकरुणनयनः साङ्गनस्मेरवक्त्रः शम्भुः श्रीभ्रामरीशः प्रकटितविभवो देवता सार्वभौमः या योगिबृन्दहृदयाम्बुजराजहंसी मन्दस्मितास्तुतमुखी मधुकैटभग्नी विघ्नान्धकारतटभेदपटीयसी सा मूर्तिः करोतु कुतुकं भ्रमराम्बिकायाः कस्तूरीतिलकाञ्चितेन्दुविलसत्प्रोद्भासि फालस्थली कर्पूरद्रवमिश्रचूर्णकपुरामोदोल्लसद्वीटिका लोलापांग तरंगितैरधिकृपासारैर्सदानन्दिनी श्रीशैलस्थलवासिनी भगवती श्रीमातरं भावये। राजन्मत्तमराळमन्दगमनां राजीवभद्रेक्षणां राजीवप्रभवादिदेवमकुटै राजत्पदाम्भोरुहां राजीवायतपत्रमण्डितकुचां राजाधिराजेश्वरी श्रीशैलस्थलवासिनी भगवती श्रीमातरं भावये। श्रीनाधादृतपालितत्रिभुवनां श्रीचक्रसञ्चारिणी गानासक्तमनुज्ञयौवनलसद्गन्धर्वकन्यादृताम् दीनानामतिवेलभाग्यजननी दिव्याम्बरालङ्कृता श्रीशैलस्थलवासिनी भगवती श्रीमातरं भावये। उभौ दर्वी कुम्भौ मणिकनकसम्भावितगुणौ दधानापाणिभ्याम् अमृतरसमृष्टान्नकलितौ कडाढ्यकल्याणि कलितसदन श्रीगिरिशिरसि असौभ्रामर्यम्बा रचयतु मदिष्टार्थविभवम्।